तस्मै हिमाद्रे प्रयतां तनूजां यतात्मने रोचयितुं यतस्व योषित्सु तद्वीर्य निषेक भूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्।
तस्मा इति यतात्मने नियतचित्ताय तस्मै भवाय रुच्यर्थानां प्रियमाणः इति संप्रदानत्वात् चतुर्थी प्रयतां हिमाद्रेः तनूजां पार्वतीं रोचयितुं यतस्व भवितव्यं चात्र पार्वत्यैवेत्याह योषित्सु स्त्रीषु मध्ये यतश्च निर्धारणम् इति सप्तमी। क्षमा शक्ता तस्य हरस्य वीर्यं रेतः तस्य निषेकः शरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेति आत्मभुवा ब्रह्मणा उपदिष्टम्। उभे एव क्षमे वोढुम् इत्यादिना उक्तमित्यर्थः। सापि इदानीं सन्निकृष्टैव तस्येति आह।
गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः सवर्गः।
गुरोरिति नगेन्द्रकन्या पार्वती च गुरोः पितुः नियोगात् शासनात् अधित्यकायाम् हिमाद्रेः ऊर्ध्वभूमौ भूमिरूर्ध्वमदित्यका इत्यमरः। उपाधिभ्याम् त्यकन्नासन्नारूढयोः इति त्यकन्प्रत्ययः। तपस्यन्तम् तपश्चरन्तम् कर्मणो रोमन्थतपोभ्याम् वर्तिचरोः इति क्यङ् प्रत्ययः। ततः शत्रुप्रत्ययः। स्थाणुम् रुद्रम् अन्वास्ते उपास्त इत्यर्थः। इति इदम् मया अप्सरसाम् मुखेभ्यः श्रुतम्, न चैतत् ऐतिह्यमात्रमित्याह। स वर्गः सः अप्सरसाम् गणः मत्प्रणिधिः मम गूढचरः प्रणिधिः प्रार्थनेचरे इति यादवः।
तद्गच्छ सिद्ध्यै कुरुदेवकार्यम् अर्थोऽयमर्थान्तरभाव्य एव अपेक्षते प्रत्ययमुत्तमम् त्वाम् बीजाङ्कुरः प्रागुदयादिवाम्भः।
तदिति तत् तस्मात् सिद्ध्यै कार्यसिद्ध्यर्थम् गच्छ देवकार्यम् कुरु। आशिशिलोट् अयमर्थः प्रयोजनम् अर्थान्तरभाव्यः कारणान्तरसाध्यः एव। तच्च कारणान्तरम् पार्वतीसन्धानमिति भावः। अर्थप्रकारे विषये वित्तकारणवस्तुषु अभिधेये च शब्दानाम् वृत्तौ चापि प्रयोजने इति विश्वः। तथापि बीजसाध्यः अङ्कुरः बीजाङ्कुरः उदयात् उत्पत्तेः प्रागम्भ इव त्वाम् उत्तमम् प्रत्ययम् चरमम् कारणम् अपेक्षते। प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु इत्यमरः। तस्मात् अस्मिन्नर्थे तव चरमसहकारित्वात् अनन्यसाध्योऽयमर्थः इति भावः।
तस्मिन् सुराणाम् विजयाभ्युपाये तवैव नामास्त्रगतिः कृतीत्वम् अप्यप्रसिद्धम् यशसे हि पुंसाम् अनन्यसाधारणमेव कर्म।
तस्मिन्निति सुराणाम् विजयाभ्युपाये जयस्य उपायभूते तस्मिन् हरे अस्त्रगतिः अस्त्रप्रसरः तवैव नाम नामेति संभावनायाम्। अन्येषां तु संभावनापि नास्तीति भावः। अतः त्वं कृती कृतमस्यास्तीति कृती कृतार्थः। तथा हि अप्रसिद्धमपि अनन्यसाधारणमेव कर्म पुंसां यशसेहि। इदं तु प्रसिद्धम् असाधारणं चेति अतियशस्करमिति भावः।
सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम्। चापेन ते कर्म न चाति हिंस्रम् अहो बतासि स्पृहणीय वीर्यः।
सुरा इति एते सुराः समभ्यर्थयितारः याचितारः। कार्यं प्रयोजनं त्रयाणां विष्टपानामपि सम्बन्धि सर्वलोकार्थमित्यर्थः। कर्म ते तव चापेन न त्वन्येनेति भावः। अतिहिंस्रम् अतिघातुकं च न। अहोबत इति सम्बोधने अहोबतानुकम्पायां खेदे सम्बोधनेऽपि च इति विश्वः। अथवा अहो आश्चर्ये बतेत्यामन्त्रणे सन्तोषे चेति बतामन्त्रणसन्तोषखेदानुक्रोशविस्मये इति विश्वः। स्पृहणीयवीर्योऽसि आश्चर्यविक्रमोऽसि आश्चर्यं स्पृहणीयं च इति नानार्थकोशः।
मधुश्च ते मन्मथसाहचर्यात् असावनुक्तोऽपि सहाय एव समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य।
मधुरिति हे मन्मथ असौ मधुश्च वसन्तोऽपि ते साहचर्यात् सहचरत्वादेव अनुक्तोऽपि अप्रेरितोऽपि सहायः सहकार्येव। तथा हि समीरणः वायुः हुताशनस्य अग्नेः नोदयिता प्रेरको भवेति केन व्यादिश्यते। अत्र मधुसमीरणयोः उक्तिमन्तरेण सहायताकरणम् सामान्यधर्मः। स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ् निर्दिष्ट इति प्रतिवस्तूपमालङ्कारोऽयम्। तदुक्तम् यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि गम्योपम्याश्रितासा स्यात् प्रतिवस्तूपमामता इति।
तथेति शेषामिव भर्तुराज्ञाम् आदाय मूर्ध्ना मदनः प्रतस्थे ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः।
तथेति तथा अस्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्ताम् मालामिव प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता इति विश्वः। माल्याक्षतादिदाने स्त्रीशेषा इति वैजयन्ती केशवौ। आज्ञाम् मूर्ध्ना आदाय शिरसा गृहीत्वा मदनः प्रतस्थे समवप्रविभ्यः स्थः इत्यात्मनेपदम्। इन्द्रः ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गम् मदनदेहम् पस्पर्श हस्तस्पर्शेन सम्भावयामासेत्यर्थः। शेषामिवाज्ञाम् इत्यत्र साधकबाधकप्रमाणाभावात् उपमोत्प्रेक्षयोः सन्देहसङ्कर इति। यदि भर्त्रा शेषापि दत्ता तदा ताम् आज्ञामिवेति उपमा। అథ నదత్తా తరిహి శేషత్వేన ఉత్ప్రేక్షిత శేషాదానంతు సందిగ్ధమితి
స మాధవేనాభిమతేన సఖ్యా రత్యా చ సాశంకమనుప్రయాతః అంగవ్యయ ప్రార్థిత కార్యసిద్ధిః స్థాణ్వాశ్రమం హైమవతం జగామ
స ఇతి స మదనః అభిమతేన ప్రియేణ సఖ్యా సుహృదా మాధవేన వసంతేన రత్యా స్వదేవ్యా చ సాశంకం సంకతం ఆపతితమితి సభయం అనుప్రయాతస్సన్ తథా అంగస్య వ్యయేనాపి ప్రార్థితా కార్యసిద్ధిః ఏన సహ తథోక్తః శీర్త్వా మృత్వాపి సర్వథా దేవకార్యం సాధయిష్యామీతి కృతనిశ్చయస్సన్నిత్యర్థః హైమవతం హిమవతి భవం స్థాణోః రుద్రస్య ఆశ్రమం జగామ
తస్మిన్ వనే సంయమినాం మునీనాం తపః సమాధేః ప్రతికూలవర్తీ సంకల్పయోనేరభిమానభూతం ఆత్మానమాధాయ మధుర్జజృంభే
తస్మిన్నితి తస్మిన్ వనే స్థాణ్వాశ్రమే సంయమినాం సమాధిమతాం మునీనాం తపసః సమాధేః ఏకాగ్రతాయాః ప్రతికూలం వర్తత ఇతి ప్రతికూలవర్తీ విరోధీ మధుః వసంతః సంకల్పయోనేః మనోభవస్య అభిమానభూతం గర్వహేతుభూతమిత్యర్థః కార్యకారణయోః అభేదోపచారః ఆత్మానం నిజం స్వరూపం ఆధాయ సన్నిధాయ జజృంభే ప్రాదుర్బభూవ వసంతధర్మాన్ ప్రవర్తయామాసేత్యర్థః
కుబేరగుప్తాం దిశముష్ణరశ్మౌ గంతుం ప్రవృత్తే సమయం విలంఘ్య దిగ్దక్షిణా గంధవహం ముఖేన వ్యలీక నిశ్వాసమివోత్ససర్జ
కుబేరేతి ఉష్ణరశ్మౌ సూర్యే సాహసికే చ నాయకే సమయం దక్షిణాయనకాలం సంగమకాలం చ విలంఘ్య అకాండే వ్యతిక్రమ్య కుబేరగుప్తాం ధనపతిపాలితాం కుత్సితశరీరేణ కేనచిద్రక్షితాం చ దిశం ఉదీచీం స్త్రీలింగాక్షిప్తాం కాంచిన్నాయికాం చ గంతుం చలితుం సంగంతుం చ ప్రవృత్తే సతి దక్షిణా దిక్ దాక్షిణ్యవతీ నాయికా చ ముఖేన అగ్రభాగేన వక్త్రేణ చ వహతీతి వహః పచాద్యచ్ గంధస్య వహం గంధవహం అనిలం వ్యలీకేన దుఃఖేన నిశ్వాసః తం వ్యలీక నిశ్వాసమివ దుఃఖే వైలక్ష్యే వ్యలీకం అప్రియాకార్యవస్తునోః ఇతి వైజయంతీ ఉత్ససర్జ ప్రవర్తయామాస స్వభర్తరి సమయోల్లంఘనేన పరాంగనాసంగతిం ప్రవృత్తే సతి స్త్రియః దాక్షిణ్యాత్ అకించిద్వదాః దుఃఖాత్ నిశ్వసంతీతి భావః ఉత్తరాయణే సతి మలయానిలాః ప్రవృత్తాః ఇతి వాక్యార్థః అత్ర ఉత్ప్రేక్షాలంకారః న చ సమాసోక్తిరేవేయం ఉత్ప్రేక్షానుప్రవిష్టేతి శంకితవ్యం కేవల విశేషణసామర్థ్యాదేవ అప్రస్తుతప్రతీతౌ సా ఉత్తిష్ఠతే అత్ర తు దక్షిణేతి విశేష్య సామర్థ్యాదపి నాయికా ప్రతీయతే న చ శ్లేష ఏవ ప్రకృతాప్రకృత విషయః ఉభయశ్లేషే శ్లిష్ట విశేష్యానంగీకారాత్ तस्मात् शब्दशक्तिमूलः अयम् ध्वनिः स च व्यलीकनिश्वासरूपचेतनधर्मसम्भावनार्थम् दक्षिणस्याः दिशः नायिकया सह अभेदमासादयन् अभेदलक्षणातिशयोक्त्युपजीविनीम् निःश्वासमिवेति वाच्योत्प्रेक्षाम् निर्वहतीति वाच्यसिद्ध्यङ्गभूत इति उत्पश्यामः।